ஆத்ம பாராயண ஆரம்பம் முதல்ல ஆகமனம் ஐம் ஆத்ம தத்துவம் சோதயாமி நமஸ்வாஹா. இரண்டாவது வித்யா தத்துவம் சோதயாமி நமஸ்வாஹா. மூணாவது சிவ தத்துவம் சோதயாமி நமஸ்வாஹா. ஐம் ஹ்ரீம் க்ளீம் சர்வ தத்துவம் சோதயாமி நமஸ்வாஹா. நான் ஆகமனம் பண்ணிவிட்டு விக்னேஸ்வர தியானம் பண்ணிக்கிறது கணபதி தியானம். சுக்லாம்பரதரம் விஷ்ணும் சசிவர்ணம் சதுர்புஜம் பிரசன்னவதனம் தியாயேத் சர்வ விக்ன உபசாந்தயே. ஓம் பூஹு பூர்புவஸ்ஸு அரோம். மேல சங்கல்பம் மமோபாத்த சமஸ்த துரித க்ஷயத்வாரா ஸ்ரீ பரமேஸ்வர ப்ரீத்யர்த்தம் சுபே தினே சோபனே முஹூர்த்தே ஆத்ய ப்ரஹ்மணஃ த்விதீய பரார்த்தே ஸ்வேதவதாஹ கல்பே ஐவஸ்வத மன்வந்தரே அஷ்டாவிம்சதி தமே கலியுகே பிரதமே பாதே ஜம்பூத்வீபே பாரதவர்ஷே பரதகண்டே நேரோஹோ தட்சிணே பார்ஷ்வே சகாப்தே அஸ்மின்னே வர்த்தமானே வியாவஹாரிகே பிரபவாதி ஷஷ்டி சம்வத்சராணாம் மத்யே தாத்ருநாம சம்வத்சரே தட்சிணாயனே வரிஷருதௌ சிம்ஹமாசே சுக்லபக்ஷே அஷ்டம்யாம் அனுராதா நக்ஷத்ர யுக்தாயாம் சுப நக்ஷத்ர சுபயோக சுபகரண ஏவங்குண சகல விசேஷண விசிஷ்டாயாம் அஸ்யாம் அஷ்டம்யாம் சுபதிதௌ பரமேஸ்வர ப்ரீத்யர்த்தம் ஸ்ரீ துர்காலக்ஷ்மி சரஸ்வதி பிரசாதாதே அஸ்மாகம் சர்வேஷாம் சக குடும்பானாம் க்ஷேமஸ்தைர்ய தைரிய வீரிய விஜய ஆயுஹு ஆரோக்ய ஐஸ்வர்யாணாம் அபிவிருத்யர்த்தம் வியாதி நாச பூர்வகம் க்ஷிப்ர ஆரோக்ய அவாப்த்யர்த்தம் அபமிருத்யு பரிஹார பூர்வகம் ஆயுஷ அபிவிருத்யர்த்தம் வசீகரணார்த்தம் கிரஹ பீடா நிவாரணார்த்தம் பூத பிரேத பிசாச உபத்ரவாதி சர்வாரிஷ்ட நிவாரணார்த்தம் சகல ஐஸ்வர்ய சித்திதுவாரா குலதேவதா பிரசாத சித்தியர்த்தம் கவச அர்கலா சீலக பட்டன நவாக்ஷரி மந்திரஜப ராத்திரி சூக்த பட்டன பூர்வகம் நவாக்ஷரி மந்திரஜப தேவி சூக்த ரகசியத்ரய பட்டனாந்தம் ஸ்ரீதேவி மாஹாத்ம்ய பாராயணம் அத்ய கரிஷ்யே. மேல சாபோத்தார மந்திரம் பெரு, அத ஜபம் பண்ணணும். ஏழு தடவை ஜபம் பண்ணணும். ஓம் ஹ்ரீம் க்ளீம் ஸ்ரீம் கிராம் ஹ்ரீம் சண்டிகா தேவி சாபநாச அனுகிரகம் குரு குரு ஸ்வாஹா. ஓம் ஹ்ரீம் க்ளீம் ஸ்ரீம் கிராம் ஹ்ரீம் சண்டிகா தேவி சாபநாசானுகிரகம் குரு குரு ஸ்வாஹா. ஓம் ஹ்ரீம் க்ளீம் ஸ்ரீம் கிராம் ஹ்ரீம் சண்டிகா தேவி சாபநாச அனுகிரகம் குரு குரு ஸ்வாஹா. ஓம் ஹ்ரீம் க்ளீம் ஸ்ரீம் கிராம் ஹ்ரீம் சண்டிகா தேவி சாபநாச அனுகிரகம் குரு குரு ஸ்வாஹா. ஓம் ஹ்ரீம் க்ளீம் ஸ்ரீம் கிராம் ஹ்ரீம் சண்டிகா தேவி சாபநாச அனுகிரகம் குரு குரு ஸ்வாஹா. ஓம் ஹ்ரீம் க்ளீம் ஸ்ரீம் கிராம் ஹ்ரீம் சண்டிகா தேவி சாபநாச அனுகிரகம் குரு குரு ஸ்வாஹா. ஓம் ஹ்ரீம் க்ளீம் ஸ்ரீம் கிராம் ஹ்ரீம் சண்டிகா தேவி சாபநாச அனுகிரகம் குரு குரு ஸ்வாஹா. மேல ஜாகிரத்கரணம் பெரு, அட ஜபம் பண்ணணும். அதுவும் ஏழு தடவை ஜபம் பண்ணணும். ஓம் ரம் சம் ஓம் ஐம் ஹ்ரீம் க்ளீம் சாமுண்டாயை விச்சே ரம் க்ஷம் ஓம் ஓம் ரம் சம் ஓம் ஐம் ஹ்ரீம் க்ளீம் சாமுண்டாயை விச்சே ரம் ஷம் ஓம் ஓம் ரம் சம் ஓம் ஐம் ஹ்ரீம் க்ளீம் சாமுண்டாயை விச்சே ரம் ஷம் ஓம் ஓம் ரம் சம் ஓம் ஐம் ஹ்ரீம் க்ளீம் சாமுண்டாயை விச்சே ரம் ஷம் ஓம் ஓம் ரம் சம் ஓம் ஐம் ஹ்ரீம் க்ளீம் சாமுண்டாயை விச்சே ரம் ஷம் ஓம் ஓம் ரம் சம் ஓம் ஐம் ஹ்ரீம் க்ளீம் சாமுண்டாயை விச்சே ரம் ஷம் ஓம் ஓம் ரம் சம் ஓம் ஐம் ஹ்ரீம் க்ளீம் சாமுண்டாயை விச்சே ரம் ஷம் ஓம். பிறகு உச்சீலனம்னு ஒரு மந்திரம், அத ஜபம் பண்ணணும். ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் ஹ்ரீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. ஓம் ஸ்ரீம் க்ளீம் ஹ்ரீம் சப்தசதி சண்டிகே உச்சீலனம் குரு குரு சுவாஹா. இந்த மாதிரி 21 தடவை ஜபம் பண்ணிட்டு பிறகு அம்பாளுடைய கவசம் கத பாராயணம் பண்ணணும். ஓம் அஸ்யஸ்வீ தேவி கவச ஸ்தோத்ர மகாமந்திரஸ்ய ப்ரஹ்மா ரிஷி அனுஷ்டுப் சந்திரஹ ஸ்ரீ மகாலக்ஷ்மீர் தேவதா ஹ்ராம் பீஜம் ஹ்ரீம் சக்திஹி ஹ்ரூம் கீலகம் ஸ்ரீ மகாலக்ஷ்மி பிரசாத சித்யர்த்தே ஜபே விநியோக. மார்க்கண்டேய உவாச யத்குஷ்யம் பரமம் லோகே சர்வரக்ஷாகரம் ரிணாம் யன்னகஸ்ததிதாக்யாதம் தன்மே ப்ரூஹி பிதாமஹ. ப்ரஹ்மோவாச அஸ்தி குஷ்யதமம் விப்ர சர்வபூதோபகாரகம் தேவ்யாஸ்து கவசம் புண்ணியம் தக்ஷணுஷ்வ மகாமுனே பிரதமம் ஷைலபுத்ரீ ச த்விதீயம் ப்ரஹ்மசாரிணி த்ருதீயம் சந்திரகண்டேதி கூஷ்மாண்டேதி சதுர்த்தகம் பஞ்சமம் ஸ்கந்தமாசேதி ஷஷ்டம் காத்யாயனேதி ச சப்தமம் காலராத்ரீதி மகாகௌரீதி சாஷ்டமம் நவமம் சித்திதா ப்ரோக்தா நவதுர்கா ப்ரகீர்த்திதாஹ. உத்தான்யேதானி நாமானி ப்ரஹ்மணைவ மகாத்மனா அக்னிநாதஹ்யமானஸ்து சத்ருமத்யே கதோரணே விஷமே துர்கமே சைவ பயார்த்தா சரணம் கதாஹ. நதேஷாம் ஜாயதே கிஞ்சித் அசுபம் ரணசங்கடே நாபதம் தஸ்ய பஷ்யந்தி சர்வ துக்கக்ஷயங்கரி யைஸ்து பத்யா ஸ்ப்ரதா நூனம் தேஷாம் ருத்தி ப்ரஜாயதே பிரேத சம்ஸ்தாது சாமுண்டா பாராஹி மஹிஷாசன ஐந்திரீ கஜசமாரூட வைஷ்ணவீ கருடாசன மாஹேஸ்வரீ வ்ருஷாரூட கௌமாரீ சிஷிவாஹன ப்ராஹ்மீ ஹம்சசமாரூட ಸರ್ವಾಭರಣಭೂಷಿತ ನಾನಾಭರಣ ಶೋಭಾಢ್ಯ ನಾನಾರತ್ನೋಭಶೋಭಿತಾಃ ದೃಶ್ಯಂತೆ ರಥಮಾರೂಢಾಃ ದೇವ್ಯಃ ಕ್ರೋಧಸಮಾಕುಲಾಃ ಶಂಖಂ ಚಕ್ರಂ ಗದಾಶಕ್ತಿಂ ಖಲಂ ಚ ಮುಸಲಾಯುಧಂ ಖೇಟಕಂ ತೋಮರಂ ಚೈವ ಪರಶುಂ ಪಾಶಮೇವ ಚ ಕುಂತಾಯುಧಂ ತ್ರಿಶೂಲಂ ಚ ಶಾರ್ಂಗಾಯುಧಮನುತ್ತಮಂ ದೈತ್ಯಾನಾಂ ದೇಹನಾಶಾಯ ಭಕ್ತಾನಾಮಭಯಾಯ ಚ ಧಾರಯಂತ್ಯಾಯುಧಾನೇತ್ಸಂ ದೇವಾನಾಂ ಚ ಹಿತಾಯ ವೈ ಮಹಾಬಲೇ ಮಹೋತ್ಸಾಹೇ ಮಹಾಭಯವಿನಾಶಿನಿ ತ್ರಾಹಿ ಮಾಂ ದೇವಿ ದುಷ್ಪ್ರೇಕ್ಷ್ಯೆ ಶತ್ರೂಣಾಂ ಭಯವರ್ಧನಿ ಪ್ರಾಚ್ಯಾಂ ರಕ್ಷತು ಮಾಮಯೀಂದ್ರಿ ಆಗ್ನೇಯ್ಯಾಂ ಅಗ್ನಿದೇವತಾ ದಕ್ಷಿಣೇವತು ವಾರಾಹಿ ನೈರುತ್ಯಾಂ ಖಡ್ಗಧಾರಿಣಿ ಪ್ರತೀಚ್ಯಾಂ ವಾರುಣಿ ರಕ್ಷೇತಿ ವಾಯವ್ಯಾಂ ಮೃಗವಾಹಿನಿ ರಕ್ಷೇದುದೀಚ್ಯಾಂ ಕೌಮಾರಿ ಈಶಾನ್ಯಾಂ ಶೂಲಧಾರಿಣಿ ಊರ್ಧ್ವಂ ಬ್ರಹ್ಮಾಣಿ ಮೇ ರಕ್ಷಾತ್ ಅಧಸ್ತಾತಿ ವೈಷ್ಣವೀ ತಥಾ ಏವಂ ದಶ ದಿಶೋ ರಕ್ಷೇತಿ ಚಾಮುಂಡಾ ಶವವಾಹನ ಜಯಾ ಮೇಚಾಗ್ರತಸ್ಥಾತು ವಿಜಯಾಸ್ಥಾತು ಪೃಷ್ಠತಃ ಅಜಿತಾ ವಾಮ ಪಾರ್ಶ್ವೇತು ದಕ್ಷಿಣೇ ಚಾಪರಾಜಿತಾ ಶಿಖಾಮುದ್ಯೋತಿನಿ ರಕ್ಷೇತಿ ಉಮಾಮೂರ್ಧಿ ವ್ಯವಸ್ಥಿತಾ ಮಾಲಾಧರೀ ಲಲಾಟೆ ಚ ಧ್ರುವೋ ರಕ್ಷೇದ್ಯಶಸ್ವಿನಿ ತ್ರಿನೇತ್ರಾ ಚ ಧ್ರುವೋರ್ಮಧ್ಯೆ ಯಮಘಂಟಾ ಚ ನಾಸಿಕೆ ಶಂಖಿನಿ ಚಕ್ಷುಷೋರ್ಮಧ್ಯೆ ಶ್ರೋತ್ರಯೋರ್ವಾರವಾಸಿನಿ ಕಪೋಲೌಕಾಲಿಕಾ ರಕ್ಷೇತಿ ಕರ್ಣಮೂಲೇ ತು ಶಾಂಕರೀ ನಾಸಿಕಾಯಾಂ ಸುಗಂಧಾ ಚ ಉತ್ತರೇಷ್ಠೇ ಚ ಜತ್ರಿಕಾ ಅಧರೇ ಚಾಮೃತಕಲಾ ಜಿಹ್ವಾಯಾಂ ಚ ಸರಸ್ವತೀ ದಂತಾನ್ ರಕ್ಷತ ಕೌಮಾರೀ ಕಂಠಮಧ್ಯೇತಿ ಚಂಡಿಕಾ ಘಂಟಿಕಾಂ ಚಿತ್ರಘಂಟಾ ಚ ಮಹಾಮಾಯಾ ಚ ತಾಲುಕೇ ಕಾಮಾಕ್ಷೀ ಚ ಮುಖಂ ರಕ್ಷೇತಿ ವಾಚಂ ಮೇ ಸರ್ವಮಂಗಳಾ ಗ್ರೀವಾಯಾಂ ಭದ್ರಕಾಳೀ ಚ ಪೃಷ್ಠವಂಶೀ ಧನುರ್ಧರೀ ನೀಲಗ್ರೀವಾ ಬಹಿಷ್ಕಂಠೇ ನಲಿಕಾಂ ನಳಕೂಬರೀ ಖಡ್ಗಧಾರಿಣ್ಯುಭೌ ಸ್ಕಂಧೌ ಬಾಹೂ ಮೇ ವಜ್ರಧಾರಿಣೀ ಹಸ್ತಯೋರ್ದಂಡಿನಿ ರಕ್ಷೇತಿ ಅಂಬಿಕಾ ಚಾಂಗುಲೀಷು ಚ ನಖಾಂ ಶೂಲೇಶ್ವರಿ ರಕ್ಷೇತಿ ಕಕ್ಷೌ ರಕ್ಷೇನ್ನಲೇಶ್ವರೀ ತನೌ ರಕ್ಷೇನ್ಮಹಾದೇವಿ ಮನಃಶೋಕ ವಿನಾಶಿನಿ ಹೃದಯಂ ಲಲಿತಾ ದೇವಿ ಉದರೆ ಶೂಲಧಾರಿಣಿ ನಾಭಿಂ ಚ ಕಾಮಿನಿ ರಕ್ಷೇತಿ ಗುಹ್ಯಂ ಗುಹ್ಯೇಶ್ವರೀ ತಥಾ ಭೂತನಾಥಾ ಚ ಮೇಧ್ಯಂ ಚ ಬುಧಂ ಅಖಿಲವಾಹಿನಿ ಕಟ್ಯಾಂ ಭಗವತೀ ರಕ್ಷೇತಿ ಜಾನುನಿ ವಿಂಧ್ಯವಾಸಿನಿ ಜಂಘೇ ಮಹಾಬಲ ರಕ್ಷೇತಿ ಜಾನುಮಧ್ಯೇ ವಿನಾಯಕೀ ಗುಲ್ಫಯೋತ್ನಾರಸಿಂಹೀ ಚ ಪಾರಪೃಷ್ಠೇ ನಿತೌಜಸೀ ಪಾದಾಂಗುಲೀ ಶ್ರೀಧರೀ ಚ ಪಾದಾಧಸ್ಥಲವಾಸಿನಿ ನಖಾಂತಂಷ್ಟಾಕರಾಳೀ ಚ ಕೇಶಾಂ ಶೈವೋರ್ಧ್ವಕೇಶಿನಿ ರೋಮಕೂಬೇಷು ಕೌಬೇರೀ ತ್ವಜಂ ವಾಗೀಶ್ವರೀ ತಥಾ ರಕ್ತಮಜ್ಜಾವಸಾ ಮಾಂಸ ನ್ಯಸ್ತಿಮೇದಾಂಸಿ ಪಾರ್ವತೀ ಅಂತ್ರಾಣಿ ಕಾಳರಾತ್ರಿಶ್ಚ ಪಿತ್ತಂಚ ಮುಕುಟೇಶ್ವರೀ ಪದ್ಮಾವತೀ ಪದ್ಮಕೋಶೇ ಕಫೇ ಚೂಡಾಮಣಿಸ್ತಥಾ ಜ್ವಾಲಾಮುಖೀ ನಖಜ್ವಾಲಾ ಮಭೇದ್ಯಾ ಸರ್ವಸಿಂಧಿಷು ಸುಖಂ ಬ್ರಹ್ಮಾಣಿ ಮೇ ರಕ್ಷೇತಿ ಛಾಯಾಂ ಛತ್ರೇಶ್ವರೀ ತಥಾ ಅಹಂಕಾರಂ ಮನೋಬುದ್ಧಿಂ ರಕ್ಷಮೇ ಧರ್ಮಚಾರಿಣಿ ಪ್ರಾಣಾಪಾನೌ ತಥಾ ವ್ಯಾನ ಸಮಾನೋ ದಾನಮೇವ ಚ ಯಶಕೀರ್ತಿಂ ಚ ಲಕ್ಷ್ಮೀಂ ಚ ಸದಾ ರಕ್ಷತು ಚಕ್ರಿಣಿ ಗೋತ್ರಮಿಂದ್ರಾಣಿ ಮೇ ರಕ್ಷೇತಿ ಪಶೂನ್ ಮೇ ರಕ್ಷಚಂಡಿಕೇ ಪುತ್ರಾನ್ ರಕ್ಷೇಯನ್ ಮಹಾಲಕ್ಷ್ಮೀ ಭಾರ್ಯಾಂ ರಕ್ಷತು ಭೈರವೀ ಮಾರ್ಗಂ ಕ್ಷೇಮಕರೀ ರಕ್ಷೇತಿ ವಿಜಯಾ ಸರ್ವತಃ ಸ್ಥಿತಾ ರಕ್ಷಾಹೀನಂತು ಯತ್ಸ್ಥಾನಂ ವರ್ಜಿತಂ ಕವಚೇನತು ತತ್ಸರ್ವಂ ರಕ್ಷಮೇ ದೇವಿ ಜಯಂತೀ ಪಾಪನಾಶಿನಿ ಪರಮೇಕಂ ನ ಗಚ್ಚೇತ್ತು ಯದೀಚ್ಛೇಚ್ಛುಭವಾತ್ಮನಃ ಕವಚೇನಾವೃತೋ ನಿತ್ಯಂ ಯತ್ರ ಯತ್ರ ಹಿ ಗಚ್ಚತಿ ತತ್ರ ತತ್ರಾರ್ಥಲಾಭಶ್ಚ ವಿಜಯಃ ಸರ್ವಕಾಮಿಕಃ ಯಂ ಯಂ ಚಿಂತಯತೇ ಕಾಮಂ तन्तं प्राप्नोति निश्चितं परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमाने निर्भयो जायते वर्त्यः सङ्ग्रामेष्वपराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमाने इदम् तु देव्याः कवचम् देवानामपि दुर्लभम् यः पठेत् प्रयतो नित्यम् त्रिसन्ध्यम् श्रद्धयान्वितः दैवी कला भवेत् तस्य त्रैलोक्ये चापराजितः जीवेत् वर्षशतम् साग्रम् अपमृत्युविवर्जितः नश्यन्ति व्याधयः सर्वे लूता विस्फोटकादयः स्थावरम् जङ्गमम् चापि कृत्रिमम् चापि यद्विषम् अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूतदाख्येतराश्चैव जलजाश्चोपदेशिकाः सहजाः कुलजामाला दाखिनी शाखिनी तथा अन्तरिक्षचरा घोरा दाकिन्यश्च महाबलाः ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेतालाः कूष्माण्डाभैरवादयः नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद्राज्ञः तेजो वृद्धिकरम् परम् यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले जपेत् सप्तशतीम् चण्डीम् कृत्वा तु कवचम् पुरा यावद्भूमण्डलम् धत्ते सशैलवनकाननम् तावत्तिष्ठति मेदिन्याम् सन्ततिः पुत्रपौत्रकी देहान्ते परमम् स्थानम् यत्सुरैरपि दुर्लभम् प्राप्नोति पुरुषो नित्यम् महामायाप्रसादतः इति श्रीवराहपुराणे हरिहरब्रह्मविरचितम् देव्याः कवचम् सम्पूर्णम् अथ अर्गलास्तोत्रम् अस्य श्री अर्गलास्तोत्र महामन्त्रस्य स्वर्णाकर्णभैरवर्षिः अनुष्टुप् छन्दः श्रीमहालक्ष्मीचण्डिका देवता अम् बीजम् गम् शक्तिः लम् कीलकम् श्रीमहालक्ष्मीचण्डिका प्रसारसिद्ध्यर्थे जपे विनियोगः मार्कण्डेय उवाच जयन्ती मङ्गला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते मधुकैधव विद्रावि विधातु वरदे नमः रूपम् देहि जयम् देहि यशो देहि द्विषो देहि महिषासुरनिर्नाश विधातृ वरदे नमः रूपम् देहि जयम् देहि यशो देहि द्विषो देहि वन्दिताङ्घ्रियुगे देवि देवसौभाग्यदायिनी रूपम् देहि जयम् देहि यशो देहि द्विषो देहि रक्तबीजवधे देवि चण्डमुण्डविनाशिनी रूपम् देहि जयम् देहि यशो देहि द्विषो देहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनी रूपम् देहि जयम् देहि यशो देहि द्विषो देहि न तेभ्यः सर्वदा भक्त्या चण्डिके प्रणताजमे रूपम् देहि जयम् देहि यशो देहि द्विषो देहि सुवद्भ्यो भक्तिपूर्वम् त्वाम् चण्डिके व्याधिनाशिनी रूपम् देहि जयम् देहि यशो देहि द्विषो देहि चण्डिके सततम् ये त्वाम् अर्चयन्तीह भक्तितः रूपम् देहि जयम् देहि यशो देहि द्विषो देहि देहि सौभाग्यमारोग्यम् देहि देव परम् सुखम् रूपम् देहि जयम् देहि यशो देहि द्विषो देहि विधेहि द्विषताम् नाशम् विधेहि बलमुच्चकैः रूपम् देहि जयम् देहि यशो देहि द्विषो देहि विधेहि देवि कल्याणम् विधेहि विपुलाम् श्रियम् रूपम् देहि जयम् देहि यशो देहि द्विषो देहि विद्यावन्तम् यशस्वन्तम् लक्ष्मीवन्तम् जनम् कुरु रूपम् देहि जयम् देहि यशो देहि द्विषो देहि प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणतायमे रूपम् देहि जयम् देहि यशो देहि द्विषो देहि चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरी रूपं देहि जयं देहि यशो देहि द्विषो देहि कृष्णेन संस्तुते देवी शश्वत्भक्त्या तथाम्बिके रूपं देहि जयं देहि यशो देहि द्विषो देहि सुमाचल सुतानाथ पूजिते परमेश्वरी रूपं देहि जयं देहि यशो देहि द्विषो देहि सुरासुर शिरोरत्न निघृष्ट चरणेऽम्बिके रूपं देहि जयं देहि यशो देहि द्विषो देहि इन्द्राणीपति सद्भाव पूजिते परमेश्वरी रूपं देहि जयं देहि यशो देहि द्विषो देहि देवि प्रचण्ड दोर्दण्ड दैत्यदर्प विनाशिनी रूपं देहि जयं देहि यशो देहि द्विषो देहि देवि भक्तजनोद्दाम दत्तानन्दोदयेऽम्बिके रूपं देहि जयं देहि यशो देहि द्विषो देहि पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीं तारिणीं दुर्गसंसार सागरस्य कुलोद्भवान् इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः स तु सप्तशती संख्या परमाप्नोति सम्पदः इति श्रीमार्कण्डेयपुराणे अर्गलास्तोत्रं समाप्तम् अथ कीलकम् अस्य श्रीकीलकस्तोत्रमहामन्त्रस्य विशुद्धज्ञानऋषिः अनष्टुप्छन्दः श्रीचण्डिका देवता ताम् बीजम् क्लीम् शक्तिः क्लूम् कीलकम् श्रीचण्डिका प्रसारसिद्ध्यर्थे जपे विनियोगः विशुद्धज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे शेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे सर्वमेतद्विजानीयात् मन्त्राणामभिकीलकम् सोऽपि क्षेममवाप्नोति सततम् जाप्य तत्परः सिद्ध्यन्युच्चाटनादीनि वस्तूनि सकलान्यपि एतेन स्तुवताम् देवी स्तोत्रमात्रेण सिद्ध्यति न मन्त्रोऽनौषधम् तत्र न किञ्चिदपि विद्यते विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् समग्राण्यपि सेत्स्यन्ति लोकशङ्काविमाम् हरः कृत्वा निमन्त्रयामास सर्वमेदमिदम् शुभम् स्तोत्रम् वै चण्डिकायास्तु तच्च गुह्यम् चकारसः समाप्यन्न च पुण्यस्य ताम् यथावन्नियन्त्रणाम् सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः कृष्णायाम् वा चतुर्दश्याम् अष्टम्याम् वा समाहितः ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति इत्थम् रूपेण कीलेन महादेवेन कीलितम् यो निष्कीलाम् विधायैनाम् नित्यम् जपति संस्फुटम् ससिद्धस्त गणस्थोऽपि गन्धर्वो जायते वने न चैवाप्रणतस्तस्य भयम् क्वापीह जायते नाल्पमृत्युवशम् जाति मृतो मोक्षमवाप्नुयात् ज्ञात्वा प्रारभ्य कुर्वीत चकुर्वाणो विनश्यति ततो ज्ञात्वैव सम्पन्नम् इदम् प्रारभ्यते बुधैः सौभाग्यादिक यत्किञ्चित् दृश्यते ललनाजने तत्सर्वम् तत्प्रसादेन तेन जाप्यमिदम् शुभम् शनैस्तु जाप्यमानेऽस्मिन्ने स्तोत्रे सम्पत्तिरुच्यतैः भवत्येव समग्रापि ततः प्रारब्धमेव तत् ऐश्वर्यम् यत्प्रसादेन सौभाग्य आरोग्य सम्पदः शत्रुहानिः परो मोक्षः सूयसे सा न किम् जनैः इति श्रीकीलकस्तोत्रम् सम्पूर्णम् रात्रिसूक्तम् रात्रीति सूक्तस्य कुशिकर्षिः गायत्रीच्छन्दः रात्रिर्देवता श्रीदगदम्बा प्रीत्यर्थे जपे विनियोगः ॐ रात्रीत्यक्षदायति कुरुद्रा देव्या अक्षभिः विश्वाधिश्रियोधिता ओर्वप्रामर्त्यानिवतो देव्या उद्वताः ज्योतिषा बाधते नमः निरस्पसारमस्तु तोषसम् देव्याः यति अपेदूहासते तमाः सानोः अत्ययस्य वयम् नितेयामन्न विक्ष्मः वृक्षेण वसतिम् वयाः निग्रामासो अभिक्षत निपत्वन्तो निपक्षिणाः निःश्वेनाथश्चिदर्थिनाः यावया वृद्ध्या अमृतम् यवयस्ते नमोर्मे अथानः सुतरा भव उपमापेऽपीशत्तमः कृष्णम् यत्तमस्थित उषारिणेव यातया उपाते गायिवाकारम् ऋणीष्व दूषितर्दिवः रात्रिस्तोमन्न जिज्ञुषे इति रात्रिसूक्तम् समाप्तम् नवाक्षरी विवेदनम् अस्य श्रीनवाक्षरी महामन्त्रस्य मार्कण्डेय ऋषिः जगती छन्दः दुर्गालक्ष्मी सरस्वती देवता हराम् बीजम् ह्रीम् शक्तिः ह्रूम् कीलकम् श्री दुर्गालक्ष्मी सरस्वती प्रसादसिद्ध्यर्थे जपे विनियोगः ह्राम् अङ्गुष्ठाभ्याम् नमः ह्रीम् तर्जनीभ्याम् नमः ह्रूम् मध्यमाभ्याम् नमः ह्रैम् अनामिकाभ्याम् नमः ह्रौम् कनिष्ठिकाभ्याम् नमः ह्रः करतलकरपृष्ठाभ्याम् नमः ह्राम् हृदयाय नमः ह्रीम् शिरसे स्वाहा ह्रूम् शिखायै वषटे ह्रैम् कवचाय हुम् ह्रौम् नेत्रत्रयाय वौषटे ह्रः अस्त्राय भटे भूर्भुवस्ववरोमिति दिग्बन्धः ध्यानम् मातर्मे मधुकैतभक्तिमयिडप्राणापहारोऽद्य मे शेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनी विशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनिसं हराशु दुरितम् दुर्गे नमस्ते अम्बिके गम् पृथिव्यात्मने गन्धम् समर्पयामि गम् आकाशात्मने पुष्पाणि समर्पयामि यम् वायुभात्मने धूपमाघ्रापयामि तम् वह्यात्मने दीपम् दर्शयामि त्वम् अमृतात्मने अमृतम् महानैवेद्यम् निवेदयामि त्वम् सर्वात्मने सर्वोपचारपूजाम् समर्पयामि नवाक्षरी मन्त्रम् ओम् ऐं ह्रीं क्लीं चामुण्डायै विच्चे 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 नमरि नूतट सर्व जपम् मण्डनम् जपम् मण्डिते शिरः नवाक्षर्य पूर्ति मण्डनम् हराम् हृदयाय नमः ह्रीं शिरसे स्वाहा ह्रूं शिखायै वषट् ह्रैं कवचाय हुम् ह्रौं नेत्रत्रयाय वौषट् ह्रः अस्त्राय भट् भूर्भुवस्वरोमिति दिग्विमोकः ध्यानम् मातर्मे मधुकैतभग्निमयिडप्राणापहारोऽद्य मे शेलानिर्मितधूम्रलोचनवधे श्रीदण्डमुण्डार्दिनी निःशेषीकृतरक्तबीजदनुजे नित्ये दिशुम्भापहे शुम्भध्वंसिनिसं हराशु दुरितम् दुर्गे नमस्ते अम्बिके यम् पृथिव्यात्मने गन्धम् समर्पयामि यम् आकाशात्मने पुष्पाणि समर्पयामि यम् वायुवात्मने धूपमाघ्रापयामि यम् वह्यात्मने दीपम् दर्शयामि त्वम् अमृतात्मने अमृतम् महानैवेद्य निवेदयामि त्वम् सर्वात्मने सर्वोपचारपूजाम् समर्पयामि गुह्यादिगुह्य गोत्रीत्वम् गृहाणात्मत्कृतम् जपम् सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्थिरा श्रीनवाक्षरी विवेचनम् समाप्तम् चरित्रम् अस्य श्री प्रथमचरित्रस्य ब्रह्मा ऋषिः गायत्री छन्दः महाकाली देवता नन्दाशक्तिः रक्तदन्तिका बीजम् अग्निस्तत्त्वम् ऋग्वेदस्वरूपम् श्रीमहाकाली प्रीत्यर्थे जपे विनियोगः महाकाली ध्यानम् खड्गम् चक्रगदेषु चापपरिधान् शूलं भुषुण्डीं शिरः शङ्खं सन्दधतीं करैः त्रिनयनां सर्वाङ्गभूषावृताः यां हन्तुं मधुकैटभौ जलजभूः तुष्टावसुते हरौ नीलाश्मद्युतिमास्य पाददशकाम् सेवे महाकालिकाम् नमश्चण्डिकायै ॐ ऐं मार्कण्डेय उवाच सावर्ण्यसूर्यतनयोयो मनुःकथ्यतेष्टमः निशामय तदुत्पत्तिम् विस्तराते गद्गदो मम महामायानुभावेन यथा मन्वन्तराधिपः स बभूव महाभागः सावर्ण्यस्तनयोरवेः स्वारोचुषेऽन्तरे पूर्वम् चैत्रवंशसमुद्भवः सुरथो नाम राजाभूते समस्ते क्षितिमण्डले तस्य पालयतः सम्यक् प्रजाः पुत्राणि बहुरसाने बभूवश्शत्रवो भूपाः कोलाविध्वंसिनस्तदा तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिनः न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ततस्त्वपुरमायातो निजदेशाधिपो भवति आक्रान्तस्त महाभागः तैस्तदा प्रबलारिभिः अमात्यैर्बलिभिर्दुष्टैः दुर्बलश्च दुरात्मभिः कोशो बलम् चापहृतम् तत्रापि स्वपुरे ततः ततो मृगया व्याजेन कृतस्वाम्यस्व भूपतिः एकाकी हयमारुह्य जगामगहनम् वनम् स तत्राश्रममद्राक्षीति द्विजवर्यस्य मेधसः प्रशान्तस्वापदाकीर्णम् मुनिशिष्योपशोभितम् तस्थौ कञ्चित् सकालम् च मुनिना तेन सत्कृतः इतश्चेतश्च विचरन्ने तस्मिन्ने मुनिवराश्रमे सोचिन्तयत्तदा तत्र मम त्वाकृष्टचेतनः मत्पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हितते मद्भृत्यैस्तैरसद्वृत्तैः घर्मतः पाल्यते न वा न जाने स प्रधानो मे शूरहस्ती सदा मदः मम वैरिवशम् जातः कान् भोगानुपलप्स्यते ये ममानुगता नित्यम् प्रसादधनभोजनैः अनुवृत्तिम् ध्रुवम् तेज्य कुर्वन्त्यन्यमहीभृताम् असम्यक्व्ययशीलैस्तैः कुर्वद्भिः सततम् व्ययम् सञ्चितस्वोति दुःखेन क्षयम् कोशो गमिष्यति एतच्चान्यच्च सततम् चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकम् ददर्शवः सपृष्टस्तेन कस्तम्भो हेतुश्चागमनेत्रकः सशोक इव कस्मात् त्वम् दुर्मना इव लक्ष्यसे इत्याकर्ण्यवचस्तस्य भूपतेः प्रणयोदितम् प्रत्युवाच सतम् वैश्यः प्रश्रया वनतो नृपम् वैश्य उवाच समाधिर्नाम वैश्योऽहम् उत्पन्नो धनिनाम् कुले पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः सोऽहम् न वेत्मि पुत्राणाम् कुशलाकुशलात्मिकाम् प्रवृत्तिम् स्वजनानाम् च दाराणाम् चात्र संस्थितः किन्नु तेषाम् गृहे क्षेमम् अक्षेमम् किन्नु साम्प्रतम् कथम् ते किन्नु सद्वृत्ताः दुर्वृत्ताः किन्नु मे सुताः राजोवाच यैर्निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्धनैः तेषु किम् भवतः स्नेहम् अनुबध्नादिमानसम् वैश्य उवाच एवमेतद्यथा प्राह भवानस्मद्गतम् वचः किम् करोमि न बध्नाति मम निष्ठुरताम् मनः यैः सन्त्यज्य पितृस्नेहम् धनलुब्धैर्निरागतः पतिस्वजनहार्दम् च हार्दितेष्वेव मे मनः किमेतन्नाभिजानामि जानन्नपि महीमते यत्प्रेम प्रवणम् चित्तम् द्विगुणेष्वपि बन्धुषु तेषां कृते मे निःश्वासः दौर्मनस्यञ्च जायते करोमि किन्न मनसः तेष्प्रीतिषु निष्ठुरम् मार्कण्डेय उवाच ततस्तौ सहितौ विप्र तम् मुनिम् समुपस्थितौ समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः कृत्वा तु तौ यथा न्यायम् यथार्हम् तेन संविदम् उपविष्टौ कथाः काश्चित् चक्रतुर्वैश्यपार्थिवौ राजोवाच भगवन् स्वामहम् प्रष्टुम् इच्छाम्येकम् वदस्व तत् दुःखाय यन्मे मनसः स्वचित्ताय तताम् विना मम त्वम् गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतो वापि जानस्य यथाज्ञस्य किमेतन्मुनिसत्तमा अयम् च निगतः पुत्रैः दारैर्भृत्यैस्तथोज्झितः स्वजनेन च सन्त्यक्तः तेषु हार्दी तथाप्यति एवमेव तथाहम् च वावप्यत्यन्तदुःखितौ दृष्टदोषोऽपि विषये न मत्वा कृष्टमानसौ तत्किमेतन्महाभाग यन्मोहो ज्ञानिनारपि ममास्त च भवत्येष विवेकान्धस्य मूढता ऋषिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे विषयश्च महाभाग जाति चैवम् पृथक् पृथक् दिवान्धाः प्राणिनः केचित् रात्रावन्धास्तथा परे केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ज्ञानिनो मनुजास्तत्यम् किन्तु ते न हि केवलम् यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ज्ञानम् च तन्मनुष्याणाम् यत्तेषाम् मृगपक्षिणाम् मनुष्याणाम् च यत्तेषाम् तुल्यमन्यत्तथोभयोः ज्ञानेऽपि सति पश्चैतारे पतङ्गाञ्छावचञ्चुषु कणमोक्षादृतान्मोहात् पीड्यमानानपि क्षुधा मानुषा मनुषव्याघ्र साभिलाषा सुतान् प्रति लोभात् प्रत्युपकाराय नन्वेतान् किन्न पश्यसि तथापि मम तावर्ते मोहकर्ते निपातिताः महामायाप्रभावेण संसारस्थितिकारिणा सन्नात्र विस्मयः कार्यः योगनिद्रा जगत्पतेः महामायाहरेश्चैष तया सम्मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवती हि सा बलादाकृष्य मोहाय महामाया प्रयच्छति तया विसृज्यते विश्वम् जगदेतच्चराचरम् सैषा प्रसन्ना वरदा नृणाम् भवति मुक्तये सा विद्या परमा मुक्तेः हेतुभूता सनातनी संसारबन्धहेतुश्च सर्वसर्वेश्वरेश्वरी राजोवाच भगवन् काहि मा देवी महामायेति याम् भवान् ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किम् द्विजा यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा तत्सर्वम् श्रोतुमिच्छामि त्वत्तो ब्रह्मविदाम्बरा ऋषिरुवाच नित्यैव सा जगन्मूर्तिः तया सर्वमिदम् ततम् तथापि तत्समुत्पत्तिः बहुधा श्रूयताम् मम देवानाम् कार्यसिद्ध्यर्थम् आविर्भवति सा यदा उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते योगनिद्राम् यदा विष्णुः जगत्येकार्णवीकृते आस्तीर्यशेषमभजति कल्पान्ते भगवान् प्रभुः तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तुम् ब्रह्माणमुद्यतौ सनाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तम् च जनार्दनम् तुष्टावयोगनिद्राम् ताम् एकाग्रहृदयस्थितः विबोधनार्थाय हरेः हरिनेत्रकृतालयान् विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणीम् निद्राम् भगवतीम् विष्णोः अतुलाम् तेजसः प्रभुः ब्रह्मोवाच त्वम् स्वाहा त्वम् स्वरा त्वम् हि पषत्कारस्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता అర్ధమాత్రా స్థితా నిత్య తానుచ్చార్యా విశేషతః త్వమేవ సంధ్యా సావిత్రి త్వం దేవి జననీ పరా త్వయైతద్ధార్యతే విశ్వం త్వయైతత్సృజ్యతే జగత్ త్వయైతత్పాల్యతే దేవి త్వమర్చ్యంతే చ సర్వదా విసృష్టౌ సృష్టిరూపా త్వం స్థితిరూపా చ పాలనే తథా సంహృతి రూపాంతే జగతోస్తి జగన్మయే మహావిద్యా మహామాయా మహామేధా మహాస్మతిః మహామోహా చ భవతి మహాదేవీ మహాసురీ ప్రకృతిస్త్వం చ సర్వస్య గుణత్రయ విభావిని కాళరాత్రిర్మహారాత్రిః మోహరాత్రిశ్చ దారుణా త్వం శ్రీస్త్వమీశ్వరీ త్వం హ్రీస్త్వం బుద్ధిర్బోధలక్షణా లజ్జాపుష్టిస్తథా తుష్టిః త్వం శాంతిః క్షాంతిరేవ చ ఖడ్గినీ శూలినీ ఘోర గదినీ చక్రిణీ తథా శంఖినీ చాపినీ బాణ భూషుండీ పరఘాయుధా సౌమ్యా సౌమ్యతరాశేష సౌమ్యేభ్యస్తతి సుందరీ పరాపరాణాం పరమా త్వమేవ పరమేశ్వరీ యచ్చ కించిత్ క్వచిద్వస్తు సదసద్వాఖిలాత్మికే తస్య సర్వస్య యా శక్తిః సా త్వం కిం స్తూయసే తదా యయా త్వయా జగత్స్రష్టా జగత్పాతార్థియో జగత్ సోపి నిద్రావశం నీతః కస్వాం స్తోతుమిహేశ్వరః విష్ణుశరీరగ్రహణం అహమీశాన ఏవ చ కారితాస్తే యతోతస్వాం కస్తోతుం శక్తిమాన్ భవేత్ సాత్వభిత్తం ప్రభావైః స్వైరుదారైర్దేవి సంస్తుతా మోహయైతౌ దురాధర్షౌ అసురౌ మధుకైతభౌ ప్రబోధం చ జగత్స్వామీ నీయతామచ్యుతో లఘు బోధశ్చ క్రియతామస్య సంతుమేతౌ మహాసురౌ ఋషిరువాచ ఏవం స్తుతా తదా దేవీ తామసీ తత్ర వేధసా విష్ణోః ప్రబోధనార్థాయ నిఘంతుం మధుకైతభౌ నేత్రాస్య నాసికా బాహు హృదయేభ్యస్తథోరసః నిర్గమ్య దర్శనే తస్థౌ బ్రహ్మణో వ్యక్తజన్మనః ఉత్తౌస్థస్థ జగన్నాథః తథా ముక్తో జనార్దనః ఏకార్ణవేహి శయనాతే తతస్తదృశే దతౌ మధుకైతభౌ దురాత్మానౌ అతివీర్య పరాక్రమౌ క్రోధరక్షే క్షణావత్తుం బ్రహ్మాణం జనితోద్యమౌ సముత్థాయ తతస్తాభ్యాం యుయుధే భగవాన్ హరిః పంచవర్షసహస్రాణి బాహు ప్రహరణో విభుః తావప్యతిబలోన్మత్తౌ మహామాయా విమోహితౌ ఉక్తవంతౌ వరోస్మత్తో ప్రియతామితి కేశవం శ్రీభగవానువాచ భవేతామద్య మే తుష్టౌ మమ వధ్యావుభావపి కిమన్యేన వరేణాత్ర ఏతావద్ధివృతం మమ ఋషిరువాచ వంచితాభ్యామితి తదా సర్వమాపోమయం జగత్ విలోక్యతాభ్యాం గదితః భగవానే కమలేక్షణః ఆవాం జహినయత్రోర్వి సలిలేన పరిప్లుతా ఋషిరువాచ తథేత్యుక్త్వా భగవత శంఖచక్రగదాభృతా కృత్వా చక్రేణ వైచ్ఛిన్నే జగనే శిరసీతయోః ఏవమేషా సముత్పన్నా బ్రహ్మణా సంస్థుతా వయం ప్రభావమస్యా దేవ్యాస్తు భూయ శృణు వదామితే ఇది శ్రీదేవే మార్కండేయ పురాణే సావర్ణికే మన్వంతరే దేవీ మహాత్మ్యే ప్రథమోధ్యాయ అత మధ్యమచరిత్రం అస్య శ్రీమధ్యమచరిత్రస్య విష్ణు ఋషిః పుష్టిఛందః మహాలక్ష్మీర్దేవత శాకంభరీ శక్తిః దుర్గా బీజం వాయుస్తత్వం యజుర్వేద స్వరూపం శ్రీమహాలక్ష్మీ ప్రీత్యర్థే జపే వినియోగః పక్షస్పరశుంగదేషు కులిశం పద్మం ధనః కుండికాం దండం శక్తిమసించ ధర్మజలజం ఘంటాం సురాభాజనం శూలం పాశ సుదర్శనే చ దధతీ హస్తైః ప్రబాళ ప్రభాం సేవే సౌరభమర్దినీమిహ మహాలక్ష్మీం సరోజస్థితా ओम ह्रीं ऋषिरुवाच देवासुरमभूद्युद्धम् पूर्णमर्धशतम् पुरा महिषे सुराणामधिपे देवानाम् च पुरन्दरे तत्रासुरैर्महावीर्यैः देवसैन्यम् पराजितम् जित्वा च सकलान् देवान् इन्द्रोऽभून्महिषासुरः ततः पराजिता देवाः पद्मयोनिम् प्रजापतिम् पुरस्कृत्य गतास्तत्र यत्रेष गरुडध्वजौ यथावृतम् तयोस्तद्वते महिषासुरचेष्टितम् त्रिदशाः कथयामासुः देवाभिभवविस्तरम् सूर्येण्यग्निनीलेन्द्रूणाम् यमस्य वरुणस्य च अन्येषाम् चाधिकारान् सः स्वयमेवाधितिष्ठति स्वर्गानिरागताः सर्वे तेन देवगणा भुवि विचरन्ति यथामर्त्याः महिषेण दुरात्मना एतद्वः कथितम् सर्वम् अमरादिविचेष्टितम् शरणम् वः प्रपन्ना स्मः मधस्तस्य विचिन्त्यताम् इत्थम् निशम्य देवानाम् वचांसि मधुसूदनः सकारकोपम् शम्भुश्च मुकुटीकुटिलाननौ ततोऽतिकोपपूर्णस्य चक्रिणो मदनात्ततः निश्चक्राममहत्तेजः ब्रह्मणः शङ्करस्य च अन्येषाम् चैव देवानाम् शक्रादीनाम् शरीरतः निर्गतम् सुमहत्तेजः तच्चैक्यम् समगच्छत अतीव तेजसः कूटम् ज्वलन्तमिव पर्वतम् ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलम् तत्ततत्तेजः सर्वदेवशरीरजम् एकस्थम् तदभून्नारी व्याप्तलोकत्रयम् त्रिषा यदभूच्छाम्भवम् तेजः तेनाजायत तन्मुखम् याम्येन चाभवन् केशाः बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मम् मध्यम् चेन्द्रेण चाभवत् वारुणेन च जङ्घोरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा वसूराञ्चकराङ्गुल्यः कौबेरेण च नासिका तस्यास्तु दन्तास्तम्भूताः प्राजापत्येन तेजसा नयनत्रियतम् यज्ञे तथा पावकतेजसा भ्रौ च सन्ध्ययोस्तेजः श्रवणावनिलश्च च अन्येषाम् चैव देवानाम् सम्भवस्तेजसाम् शिवा ततः समस्तदेवानाम् तेजोराशिसमुद्भवाम् ताम् विलोक्यमुदम् प्रापुः अमरा महिषार्दिताः शूलम् शूलाते विनिष्क्रम्य ददौ तस्यै पिता कथित् चक्रम् च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः शङ्खम् च वरुणः शक्तिम् ददौ तस्यै हुताशनः मारुतो दत्तवान् शापम् बाणपूर्णे तथोषिधी वज्रमिन्दः समुत्पाद्य कुलिशादमराधिपः ददौ तस्यै सहस्राक्षः घण्टाम् ऐरावताद्गजात् कालदण्डातीयमो दण्डम् पाशम् चाम्बुपतिर्ददौ प्रजापतिश्चाक्षमालाम् ददौ ब्रह्माकमण्डलम् समस्तरोमकूपेषु निजरश्मीन् दिवाकरः कालश्च दत्तवान् खड्गम् तस्याश्चर्म च निर्मलम् क्षीरोदश्चामलम् हारम् अजरे च तथाम्बरे चूडामणिम् तथा दिव्यम् कुण्डले कटकानि च अर्धचन्दम् तथा शुभ्रम् केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वते ग्रैवेयकमनुत्तमम् अङ्गुलीयकरत्नानि समस्ताष्वङ्गुलीषु च विश्वकर्मा ददौ तस्यै फलशुम् चाति निर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यम् च दंशनम् अम्लानपङ्कजाम् मालाम् शिरस्वरसिचापराम् अददज्जलदिस्तस्यै पङ्कजम् चाति शोभनम् हिमवान्वाहनम् सिंहम् दत्तानि विविधानि च ददावशून्यम् सुरया पानपात्रम् धनाधिपः शेषश्चतुर्वनागेशः महामणिविभूषितम् नागहारम् ददौ तस्यै दत्तेयः पृथिवीमिमाम् अन्यैरिपसुरैर्देवीम् भूषणैराजुधस्तथा सम्मानिता ननादोच्चैः साट्टहासम् पुनः पुनः तस्यानादेन घोरेण कृष्णमापूरितम् नभः आमयतातिमहता प्रतिशब्दो महानभूत् चुक्षुभुः सकला लोकाः समुद्राश्च च कम्पिरे चचालवसुधा चेलुः सकलाश्च महीधराः जयेति देवाश्च मुदा कामोच सिंहवाहिनीम् सुष्ठुवर्मुनयश्चैनाम् भक्तिनम्रात्ममूर्तयः दृष्ट्वा समस्तम् संक्षुब्धम् त्रैलोक्यमरारयः सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः आक्किमेतदिति क्रोधाति आभाष्यमहिषासुरः अभ्यतावततम् शब्दम् अशेषैरसुरैर्वृतः सतदर्शततो देवीम् व्याप्तलोकत्रयाम् त्रिषा पादाक्रान्त्या नतभुवम् किरीटोल्लिखिताम्बराम् शोभिताशेषपातालाम् धनुर्जानिस्वनेन ताम् दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ततः प्रवृते युद्धम् तथा देव्यासुरद्विषाम् शस्त्रास्त्रैर्बहुधा मुक्तैः आदीपितदिगन्तरम् महिषासुरसेनानीः चिक्षुराख्यो महासुरः युयुधे चामरश्चान्यैः चतुरङ्गबलान्वितः तथा नामयुतैः षड्भिः उदग्राख्यो महासुरः अयुध्यतायुतानाम् च सहस्तेन महाहनोः पञ्चाशद्भिश्च नियुतैः असिलोमा महासुरः अयुतानाम् शतैः षड्भिः बाष्कलो युयुधेरणे विजवाजिसहस्रौघैः अनेकैः परिवारितः कृतोरथानाम् कोट्या च युद्धे तस्मिन्नयुध्यत बिडालाख्यो युतानाम् च पञ्चाशद्भिरथायुतैः युयुधे संयुगे तत्र रथानाम् परिवारितः अन्ये च तत्रायुतशः तथ नागहयैर्वृताः युयुधः संयुगे देव्या सह दत्त महासुराः कोटिकोटिसहस्रैस्तु रथानाम् दन्तिनाम् तथा हयानाम् च वृतो युद्धे तत्राभून्महिषासुरः सोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा युयुधः संयुगे देव्या खड्गैः परशुपट्टिशैः केचित् चचिक्षुपुः शक्तीः केचित् पाशांस्तथा परे देवीम् खड्गप्रहारैस्तु चेताम् हन्तुम् प्रचक्रमः स्वापि देवीम् ततस्तानि शस्त्राण्यस्त्राणि चण्डिका लीलयैव प्रतिच्छेद निजशस्त्रास्तवर्षिणी अनायास्तानना देवी सूयमानासुरर्षिभिः मोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी सोऽपि क्रुद्धो दुतसटः देव्या वाहनकेसरी चचारासुरसैन्येषु वनेष्विबहुताशनः निःश्वासान्मुचेयांश्च युध्यमानारणेऽम्बिका स एव सद्यः सम्भूताः गणाः शतसहस्रजः युयुधुस्ते परशुभिः भिन्दिपालासि पट्टशैः नाशयन्तोऽसुरगणानि देवी शक्त्युपबृंहिताः अवादयन्तपटहानि गणाः शङ्खास्तथा परे मृदङ्गाश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्च शतशः निजघानमहासुरान् पातयामास चैवान्यानि घण्टास्वनविमोहितान् असुरान् भुवि पाशेन बद्ध्वा चान्यानकार्षयत् केचिद्विविधा कृतस्तीक्ष्णैः खड्गपातैस्तथा परे विपोथिता निपातेन गदया भुवि शेरते वेमुश्च केचिद्रुधिरम् मुसलेन भृशंहताः केचिन्निपतिता भूमौ भिन्ना शूलेन वक्षसि निरंतरा सरौघेण कृता केचिद्रणाजिरे शल्यानुकारिण प्राणाने मुमुचुस्तदार्दनाः केषाञ्चिद्बाहवश्चिन्नाः छिन्नग्रीवास्तथा परे शिरां सुपेतुरन्येषाम् अन्ये मध्ये विदारिताः विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्या महासुराः एकवानक्षिचरणाः केचिद्दिव्या द्विधा कृताः छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः कबन्धायुयुधुर्देव्या गृहीतपरमायुधाः ननुतुष्टात्सरे तत्र युद्धे तूर्यलयाश्रिताः कबन्धाश्छिन्नशिरसः खड्गशत्रिष्टिपाणयः तिष्ठतिष्ठेति भाषन्तः देवी मन्ये महासुराः पातितैराथनागैश्च असुरैश्च वसुन्धरा अगम्यासा भवद्यत्र यत्राभूत् समहारणः शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रवुः मध्ये चासुरसैन्यस्य वारणासुरवादिनाम् क्षणेन तन्महासैन्यम् असुराणाम् तथाम्बिके निन्ये क्षयम् यथा वह्निः तृणदारुमहाजयम् स च सिंहो महानादम् उत्सृजन् धृतकेसरः शरीरेभ्यो मरारीणाम् असूनिव विचिन्वति देव्या गणैश्च तैस्तत्र कृतम् युद्धम् महासुरैः यथैषाम् तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि जय जय श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये द्वितीयोऽध्यायः।